नमस्सर्वेभ्यः विलम्बः क्षन्तव्यः अद्य कृदन्तवर्गे पञ्चदशः पाठः जुलै मासस्य द्वाविंशः दिनाङ्कः अद्य वयं तृच् प्रत्ययस्य परिचयं प्राप्य रूपसिद्धिः कथम् इति जानीमः योऽन्तः प्रविश्य ममवाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरस्वधाम्ना अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरुः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो एतावता कृदन्तेषु किं किमधीतम् इति किञ्चित् पुनरावर्तनं कुर्मः. अस्माभिः दृष्टं धातुः प्रकृतिः भवति. धातोः कृत् इति प्रत्ययानां योजनेन कृदन्तः भवति. कृदन्तशब्दाः सर्वेपि प्रातिपदिकानि भवन्ति. तेभ्यः सुप्रत्ययस्य योजनेन सुबन्तस्वरूपं सिद्ध्यति. सुबन्तानामेव वाक्ये प्रयोगः भवति. कृत् इति प्रत्ययाः पाणिनिना उक्ताः. प्रायः शतोत्तरं चत्वारिंशत् प्रत्ययाः विद्यन्ते. भिन्नेषु अर्थेषु धातुभ्यः युज्यन्ते. तेषु केषाञ्चन सामान्यकृत् प्रत्ययानाम् अध्ययनम् अस्माभिः क्रियमाणमस्ति. केचन कृत्प्रत्ययाः साधारणाः, अर्थात् सर्वेभ्यः धातुभ्यः ते प्रत्ययाः योज्यन्ते. केचन प्रत्ययाः तु विशिष्य केषाञ्चन धातूनाम् एव भवन्ति. तादृशानाम् अध्ययनम् अत्र न भवति अस्मिन् वर्गे. साधारणकृत्प्रत्ययाः ये सर्वेभ्यः धातुभ्यः विधीयन्ते तेषाम् अध्ययनं कुर्मः. तत्र पञ्चप्रत्ययाः अस्माभिः एतावता अधीताः सन्ति. आदौ त्रयः प्रत्ययाः अकारादि अकारान्ताः. नूल् ल्युट् प्रत्ययः प्रथमः अन इति प्रयोगे श्रूयते. आदौ अकारः, अन्ते अपि अकारः. अयं भावार्थकप्रत्ययः, अर्थात् क्रियाबोधकः प्रत्ययः. नपुंसकलिङ्गे एव उपयोगः क्रियते. पठनं, लेखनं, करणम् इत्यादि रूपाणि भवन्ति. अनीयर् इति द्वितीयः प्रत्ययः. अनीय इति रूपे श्रूयते. सः अपि, तस्यापि आदौ अकारः, अन्ते अकारः. एषः भावकर्मार्थकः, अर्थात् क्रियां बोधयति. अकर्मकधातुभ्यः क्रियां बोधयति अथवा कर्म बोधयति. लिङ्गत्रये अपि प्रयोगः क्रियते कर्मपदस्य लिङ्गम् अनुसृत्य. पाठः पठनीयः, कथा पठनीया, पुस्तकं पठनीयम् इत्येवं क्रमेण. तृतीयः आसीत् नुल् प्रत्ययः. अक इति रूपे श्रूयते. अत्रापि आदौ अकारः, अन्ते अकारः. अयं कर्त्रर्थकः प्रत्ययः. क्रियायाः कर्तारं बोधयति. पाचकः, पाठकः, कारकः, लेखकः इत्यादि. अस्यापि लिङ्गत्रये प्रयोगः भवितुम् अर्हति. कारकः, कारिका, कारकम्. पाचकः, पाचिका, पाचकम् इत्येवम्. सो किमर्थम् एते त्रयः प्रत्ययाः आदौ अधीताः? अकारादि अकारान्तत्वात्. सो वि आर् स्टडीङ्ग् द प्रत्ययस् नाट् इन् द आर्डर् आफ् द मीनिङ्ग् बट् इन् द आर्डर् आफ् द यु नो द रूपस्. सो सिन्स् आल् आफ् देम् स्टार्ट् वित् अ, the addition to different dhatus will be similar. And since they end with a, the Subanta form will be Hraswakaranta, which is easier to use. Atayeva ete pratyayaha adau adhitaha. Rupa siddhau lyut aniyar ityetayoho samanam bhavati. So deriving the forms of lyut and aniyar are both exactly the same. That is, yatra yatra sambhavaha, tatra tatra gunaha kriyate. Anyatra kimapi na bhavati prayena. So lyut, the forms of lyut are exactly similar to the forms of aniyar. Nul pratyayetu yatra sambhavaha, tatra vriddhihi bhavati iti visheshaha. Igantanam, yatha ni dhatuhu, lyut aniyar nayanam nayaniyam nayakaha. Evam bhudhatuhu bhavanam bhavaniyam bhavakaha natu bhavakaha. Ataha nul pratyaye igantanam vriddhihi bhavati. Hrasva akaraha upadhayam asti chedapi vriddhihi bhavati. Yatha pach dhatuhu pachanam pachaniyam pachakaha. Patanam pataniyam pathakaha. Etad dvayam vihaya anyatra sarvatra rupam samanameva bhavati. Tataha asmavihi takaradi pratyayaha arabdhaha. So takaradi pratyayanam visheshaha bhavati. Rupe visheshaha bhavati. Tatra pratyaya dvayam asmavihi adhitam. Tumun pratyaha prathamaha. Kriyarthakaha eva pratyaha. Vishishtam sambandham bodhayati. Yatha kriyartha kriya. Ekam kriyam uddishya apara kriya kriyate. Tadasha sandarbhe. Punaha icchati janati shaknoti ityadinam prayoge. Evam bahushu prasangeshu. Tumun pratyayasya prayogaha kriyate. Tumun pratyayantaha shabdaha avyayam bhavati. Sarveshu lingeshu, sarveshu vachaneshu, samanam rupam bhavati. Ityataha ekameva rupam tumun pratyayantasya. Tataha tavya pratyayaha adhitaha. Ayamapi aniyar pratyayena sadrishaha, karmarthakaha athava bhavarthakaha, lingatraye rupani bhavanti, akarantaha shabdaha bhavati. Patitavyaha, patitavya, patitavyam, ityevam rupani bhavanti. Tumun pratyayasya yadrupam, tatha eva tavya pratyayasya rupam. So when I say that, I am not talking about the subanta, I am talking about the join between the dhatu and the pratyaya. So dhatoho pratyayasya cha rupena yat siddhyati tat samanam bhavati. So idanim adya adhiyamanaha pratyayaha trich iti pratyayaha. As you can see, it also starts with ta. Okay. So there will be something similar with tumun and tavya. So I am kartrarthakaha pratyayaha, like the akka that we saw. Kartrarthakaha lingatraye rupam bhavati, atra visheshaha rkarantaha athava ikaranta shabdaha. Okay, so the one thing to be noted about trich is that the subanta is rkaranta. You have the tr, so you have the kartru, hartru, bhartru, and it becomes ikaranta in strilinga. Okay, so we have so far, we have stuck only to akaranta shabdas. So henceforth, we will have to move on to know rikaranta shabdas also. Asmakam idanim adya agrima vargecha trich pratyayam pathamaham. Kintu ayam amshaha rupasiddhihi dhatoho pratyasya yojanam samanam bhavati. Yathatumun tathatavyaha tathatrichi. Okay, so if you know one, you will know all. okay, there is absolutely no difference. Yataha sarve pratyayaha takaradi pratyayaha sarve it yogyaha. Yatra yatra it bhavati tatra sarveshamapi it bhavati. Yat anyatha sandhihi bhavati. Okay. So whatever form is for tumun, just replace it with the tr and you get the trich pratyaya form. So pathamaha. So this was just an overview. So I am shashtaha pratyayaha trich iti. Adau kanchana shlokam pathamaha. Dharmasya durlabho jnata samyak vakta tatopicha shrota tatopi shraddhavan karta kopi tatasudhihi. Tatra raktavarnena chinhitaha shabdaha trich pratyayantaha. Dharmasya durlabha jnata. Jnata yaha janati. So he who knows dharma is very difficult to find. Dharmasya jnata durlabha. So he who knows it is very difficult to find. Samyag vakta tatopicha. He who can tell or teach dharma well, he is even more rare. So finding a person who knows it, jnata, itself is rare. Vakta, he who can tell about dharma, he who can explain dharma well, samyag vakta. Sarvepi dharmasya visaye vadanti, samyag vakta, he samyak dharmasya visaye vadati, saha tatopi durlabha. He is even more rare. That is, everybody who knows cannot express it. Shrota tatopi shraddhavan. So there might be people who tell, but a shraddhavan shrota, a listener, shrunoti iti shrota, yaha shrunoti, tarapi katham shraddhaya shrunoti. He who listens with faith is further rarer. Okay? And the rarest of all is karta, yaha dharmam karoti, athava dharmam acharati. Okay? So he who actually acts according to dharma is the rarest of all. Karta kopi tata sudhihi. Sudhihi, buddhiman, panditaha. So that intelligent man who acts according to the dharma is the rarest of all. So jnata durlabha, vakta tatopi durlabha, shraddhavan shrota tatopi durlabha, sudhihi karta durlabha tamaha. So the rarest is the karta. So atra jnata, vakta, shrota, karta. Iti ete shabdaha trich pratyayantaha. Okay. Atra pathamaha pathita, bhavita, lekhita, vandita, kathayita, prerayita, karta, ganta, data, jeta, cheta, shrota, ityete sarvepi shabdaha trich pratyantaha. Tesham abhijnanam atra ta ityasya shravanena bhavati prathama vibhaktau. Tra subantam subante pratiparikam rikarantam bhavati yatha pitru shabdaha evam pathitru bhavitru lekhitru iti sarvatra rikarantaha shabdaha. Pita pitarau pitaraha, evam patita patitarau patitaraha. Pullinge prathama vibhakto ekavachane ta iti rupam shruyate. Okay. So trich pratyayasya visaye kinchit janimaha. Trich iti pratyaha, rupe tu tr iti shruyate. So chakarasya shravanam na bhavati, pratiparike tr iti shruyate. Yatha path idagamaha bhavati, I tr pathi tr. Kr gune kar tr. Gam tr gan tr. Ityevam. Sarvebhyaha dhatubhyaha ayam pratyaha bhavati. So this is again a general pratyaya which can be added to all dhatus, okay, without worrying. कर्तृर्थकः प्रत्ययः कर्तारं बोधयति ज्ञाता कः यः जानाति पक्ता यः पचति कर्ता यः करोति सो द मीनिंग इज सिमिलर टू द अक ओके पाचकः पक्ता कारकः कर्ता पाठकः पठिता इत्येवं अर्थः समानः द मीनिंग ऑफ नूल एंड मीनिंग ऑफ त्रिच प्रत्यय इज द सेम अर्थः समानः भवति अत्र प्रथमं अभ्यासं कुर्मः ओके Those who would like to answer, please raise your hands. Okay. Venkatraman Ayyar. Sanyojayata. Spashtamas. हरि ओम् श्रूयते वदतु नेता किं करोति नेता इति कस्मात् धातोः भवति संयोजनं कर्तव्यम् ओके I'll just explain. Atra, there are the Trijanta forms and there are the Kriyas. You have to match the action to the Kridanta. Yatha neta iti kasmad dhatoho bhavati tasya tingantam kim iti. Sudha Raghuraman.
Namaste. Neta nayati.
नेता नयति नी धातोः नेता शब्दः नेता नयति सो नेता इज वन हु लीड्स और हु टेक्स
नर्तिता नृत्यति
नर्तिता नृत्यति सो नर्तिता नृत्यं करोति हि इज अ डांसर
निंदिता नुदति
क्षम्यताम् इट शुड बी निंदति टाइपिंग एरर सो निंदिता निंदति हि हु condemns or he who scolds is called Nindita.
Navita, Nauti.
Nauti. So, no stutau, tauti ityarthaha. He who praises is Navita.
Natita, Natati.
Natati. So, Natita, he who acts is called Natita.
Nanta, Namati.
Nanta namati. So he who bows down is called Nanta. So Neta, Nartita, Nindita, Navita, Natita, Nanta. So Neta kim karoti? Nayati. So yaha nayati, saha Neta. Evam Nartita, Nrityati. Nindita, Nindati. Navita, Nauti. Natita, Natati. Nanta, Namati. द्वितीयः अभ्यासः रिक्तस्थानं पूरणीयम् अर्थानुगुणम् ओके सो बेस्ड् आन् द दिस् वन् रामः कीदृशः किं किं कृतवान् इत्याधारेण सन्ति शुभा भगिनी यू हेव् टु अन्म्यूट् युवर् सेल्फ्
नमस्ते
रामः
रावणस्य हन्ता
रावणस्य हन्ता
रामः विभीषणस्य रक्षिता.
विभीषणस्य रक्षिता.
रामः शिवधनुषः सरि किं भङ्क्ता
भङ्क्ता भङ्क्तवान् भञ्जितवान् भञ्जयति.
रामः सीतायाः भर्ता.
सीतायाः भर्ता पतिः इत्यर्थः.
रामः अयोध्यायाः नेता.
नेता सम्यक्. सो रामः रावणस्य हन्ता. सो द किलर् आफ् रावण. विभीषणस्य रक्षिता द प्रोटेक्टर् आफ् विभीषण. शिवधनुषः भङ्क्ता द हि हु ब्रोक् शिवधनुष. सीतायाः भर्ता. सो बिभर्ति इति भर्ता. हि हु बेर्स् इस् भर्ता. पतिः इत्यर्थे सामान्यतः उपयुज्यते. भृ धातुः भर्ता इति रूपम्. अयोध्यायाः नेता. सो द लीडर् आर् द किङ्ग् आफ् अयोध्या. समानः अभ्यासः. कृष्णः एतत् एकं क्षणं. जस्ट् वन् मोमेण्ट्. देयर् इस् अ टैपिङ्ग् एरर्. कृष्णः श्रीराम महोदय.
कृष्णः गीतायाः वक्ता.
गीतायाः वक्ता.
कृष्णः गोवर्धनस्य उद्धर्ता.
उद्धर्ता.
कृष्णः कंसस्य छेत्ता.
छेत्ता.
कृष्णः नवनीतस्य भोक्ता. कृष्णः वेणोः वादयिता.
सम्यक्. सो गीतायाः वक्ता. सो ही हु स्पोक् और् टोल्ड् द भगवद्गीता. गोवर्धनस्य उद्धर्ता. ही हु लिफ्टेड् द गोवर्धन गिरि. कंसस्य छेत्ता. सो ही हु कट् और् किल्ड् कंस. नवनीतस्य भोक्ता. भुनक्ति टु ईट्स् भुङ्क्ते. सो हि हु एट् नवनीत. वेणोः वादयिता. सो हि हु प्लेस् द फ्लूट्. सो वक्ता उद्धर्ता छेत्ता भोक्ता वादयिता इति रूपाणि. सो देर् इस् अ देर् आर् अ फ्यू क्वश्चन्स् ऐ आन्सर् रैट् नौ. सो यः भरति सः भर्ता. भरती भृ धातुः. भरती इत्यपि अस्ति किन्तु बिभर्ति इति रूपं प्रसिद्धं. तृतीयगणस्य धातुः प्रसिद्धः. भृञ् भरणे इति धातुः. भादिगणे अपि अस्ति. सो ऐ थिङ्क् द धातु भृ इस् आल्सो इन् द भादिगण. बट् मोर् कामन्ली द वन् इन् द जुहोत्यादि द थर्ड् गण इस् यूस्ड्. सो नेताजी सुभाष्चन्द्रबोस् तत्र नेता इति. सत्यं नेताजी सः नायकः इत्यर्थे एव तस्य नाम भवति. श्लोकस्य अर्थं पुनः कथयतु इति केनचित् पृष्टम्. अस्माभिः पूर्वं दृष्टः श्लोकः. धर्मस्य दुर्लभ धर्मस्य दुर्लभः ज्ञाता. धर्मस्य ज्ञाता. ही हु नोस् धर्म इस् डिफिकल्ट् टु फैण्ड्. सम्यग् वक्ता ततोऽपि च. सो ही हु केन् टेल् और् एक्स्प्लेन् धर्म वेल् इस् इवन् रेरर् टु फैण्ड्. श्रोता ततोपि श्रद्धावान. सो लिसनर हु हैज श्रद्धा इज इवन मोर डिफिकल्ट टू फाइंड. कर्ता कोपि ततः सुधीहि. सुधीहि कर्ता, एन इंटेलिजेंट मैन हु एक्चुअली एक्ट्स ऑन धर्म, बिकॉज द मोस्ट इंपॉर्टेंट पार्ट ऑफ धर्म इज एक्टिंग. सो ही इज द मोस्ट डिफिकल्ट ऑफ ऑल टू फाइंड इत्यर्थः. ओके, अन्यदेकं सुभाषितं पठामः. कर्ता कारयिता चैव प्रेरकश्चानुमोदकः सुकृते दुष्कृते चैव चत्वारः समभागिनः इति सुभाषितम्. सुकृते दुष्कृते चैव, सो वेदर एन एक्ट इज अ गुड वन आर अ बैड वन. ओके, सो चत्वारः समभागिनः, फोर पीपल विल get an equal portion of the resultant. So uttamam karyam va bhavatu dushtam karyam va bhavatu chaturnam samabhagah labhyate. So equal portions of the result is got by four. KK karta, yaha vastutah karyam karoti. Karayita, yaha kartum he who makes him do. Okay, so the nijanta form, karta karayita, he who makes him do. Prerakaha, he who inspires him to act. Anumodakaha, and who is who agrees or accepts the act. Okay, so karta karayita prerakaha anumodakaha. Karta, the person who actually does it, so he gets only 25% of the resultant because there are three more to share. Karayita, he who makes him do it. Prerakaha, he who inspires him to do it. Anumodakaha, and he who accepts it. Okay. So all of them are equal partakers of the resultant, whether the act is good or the act is bad. Atah yaha karoti tasyaiva phalam labhyate iti nasti. Yaha karayati prerayati athava anumodate. So even accepting, that is, you are just saying, you are just watching without, I mean, if you, even if you feel it is wrong, if you watch without condemning that, if you approve, anumodakaha, saha api karye bhagam prapnoti. So you say you were just a witness to act. If you didn't do something to prevent it, if you could have done it, then you also get a portion of the resultant. Of course, assuming it is an evil act. So sukrate api samabhagaha labhyate. Ataha jagarukaihi bhavyam. Tatra etat jnatavyam karta कारयिता इति तृच् प्रत्ययान्तौ शब्दौ, प्रेरकः अनुमोदकः इति नूलन्तौ. सो तृच् नूल् इति द्वौ अपि प्रत्ययौ समानार्थकौ. दे आर् बोत् कर्त्रर्थक, दट् इस् दे रेफर् टु द कर्ता, द पर्सन् हू डस् द एक्शन्. सो कर्ता कारयिता चैव प्रेरकश्च अनुमोदकः सुकृते दुष्कृते चैव चत्वारः समभागिनः. इदानीं त्रिच् प्रत्ययस्य रूपसिद्धिं पश्यामः. हौ डु वि डिरैव् द फार्म्स् आफ् त्रिच्. सो मया पूर्वमेव उक्तं, यथा तुमुन् प्रत्ययान्तः, यथा तव्यप्रत्ययान्तः, तथैव त्रिच् प्रत्ययान्तः. सो वि आल्रेडि डन् दिस् ट्वैस्. ओके, सो वि हेव् डिरैव् द फार्म्स् आफ् तुमुन्, वि हेव् डिरैव् द फार्म्स् आफ् तव्य. सो एवं कृते त्रिच् प्रत्ययस्य रूपमपि समानं bhavati. So as I said, it is about the pratipadika. Okay, so later it will take on different forms. Pratipadikam samanam bhavati. KK amshah smartavyah idagamah bhavati. Set dhatunam nityam idagamah bhavati. Vet dhatunam vikalpena idagamah bhavati. Anit dhatunam tu idagamah na bhavati. जानीमः इगन्तानां गुणः भवति सो धातुस् विच एंड इन ई उ ऋ ऋ तेषां गुणः भवति इकारस्य एकारः उकारस्य ओकारः ऋकारस्य अर् इति गुणः भवति नी नेता श्रु श्रोता कृ कर्ता लघु इगुपधानाम् उपधायां लघुः इकारः उकारः ऋकारो वा अस्ति चेत् तत्रापि गुणः भवति क्षिप क्षेप्ता गुप गोप्ता नृत नर्तिता इति भवति एजन्तानाम् आकारादेशः भवति सो ध्यै ध्या ध्याता ह्वे ह्वाता हलन्तानां तु सन्धिः भवति सो फार् आल् द रेस्ट् आफ् द धातुस् वी हाव् द अप्रोप्रियेट् सन्धि अद् अत्ता पच् पक्ता गम् गन्ता इति सो दिस् इस् द you know the sankshepa of the rupa siddhi so adyakin kurmaha asmakam suchi asti so we have the list of the kridantas so we will just do a quick oral practice with these with the list because I saw that the list is not complete and there are some errors so we will orally go through the entire list giving the forms of all three tumun Tavya and Trich together. Okay? Because they are all the same. There is no difference between the forms. Just one moment, please. Tavya and सो तुमुन् तव्य त्रिच् इति त्रयाणाम् अपि रूपाणि वक्तव्यानि ओके सो वी विल् ओरली ट्रै टु गो थ्रू द होल् लिस्ट् सो दट् एक्चुली द तुमुन् फार्म्स् आर् आल्रेडी देर् सो इट्स् वेरी ईजी टु से ओके ये वक्तुमिच्छन्ति कृपया हस्तम् उन्नयन्तु हिमांशु
महोदय So, okay, so I can't see the...
You cannot see it, but the wrong. Yeah. Sorry?
I can't, the wrong, yeah.
Yeah, it could be wrong, so you have to also find it out.
The raw form, I can't see the first column, first or second column.
You want to see that? Just a moment.
Yeah.
Where is the zoom?
Well, maybe I can try with the thing, Tumun Tavya. I can try with that. Then that's right. Atum Attavya.
You can say that also in Om Sakalinga. Attavyam Atta.
Atta.
So, Adha is Atum Attavyam Atta.
Atta. अध्येतु अध्येतव्यः अध्येता
सो अध्येतव्यम् इस् राङ्ग् बिकास् द इङ् धातु इस् अनिट् सो इट् हेस् टु बी अध्येतव्यम्
अध्येतव्यम् अध्येता अनुरुध् अनुरोद्धुम्
अनुरोधव्यम् सम्यक्
आप्ता अयितु अयितव्यम् अयिता अर्तु अर्तव्यम् अर्ता कर्तु कर्तव्यम् कर्ता क्रष्टु क्रष्टव्यम् क्रष्टा क्रेतु क्रेतव्यम् क्रेता
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 नो 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 क्रेता करेक्ट यू आर राइट क्रेता
क्रेता क्रोध सो दिस इज क्रोधुम राइट
सो देयर इज सम फॉन्ट इश्यू सो इट डजंट अपीयर करेक्ट क्रोधुम
ओके क्रोधु क्रोधव्यम क्रोधा क्रोष्टम
क्रोष्टम
क्रोष्टव्यम क्रोष्टा
वन मोमेंट
क्षेतु क्षेतव्यम क्षेता क्षेप्तु क्षेप्तव्यम क्षेप्ता श्रोधुम आई गेस श्रोधुम श्रोधव्यम श्रोधा ख्यातु ख्यातव्यम ख्याता गंतु गंतव्यम गंता गातु गातव्यम गाता ग्लातु ग्लातव्यम ग्लाता घ्रातु घ्रातव्यम घ्राता
सम्यक् धन्यवादाः थैंक यू Okay, so next we will
Namo Namo. Chayakaha Chetum Chetavyam Cheta
Cheta
Chetum
Chetum
चेतव्यम चेता जायक दैट इज विनर जेतुम जेतुम जेतव्यम जेता ज्ञातुम ज्ञातव्यम ज्ञाता नेक्स्ट इज तापकः तप्तुम् तप्तव्यम् तप्ता तुद् डिस्ट्रेस् तोत्तुम् इति तोत्तुम्
यस् तोत्तुम्
तोत्तव्यम् तोत्तव्यम् तोत्ता तोषणम् तुष्टुम्
तोष्टुम्
तोष्टुम् तोष्टव्यम् तोष्टव्यम् एण्ड् तोष्टा
तोष्टा सम्यक्
त्यक्तुम् त्यक्तव्यम् त्यक्ता त्राणम् प्रोटेक्ट् Tratum. Tratavyam. Trata. Dansh. Danshtum. Danshtavyam. Danshta. Burn. Dagdhum. Dagdhavyam. Dagdha.
Dagdhum. Dagdhavyam. Dagdha.
Datum. Datavyam. Data. Next is the same, isn't it?
Same. So da, the second da is also the same.
The other one is give. Dish.
Dish.
Dish. Deshtum. Deshtavyam. Deshta. Davakaha. Distress. Do. Doshtum.
Dotum.
Dotum. Dotavyam. Dota. Doshakaha. Corrupted. Doshtum. Doshtavyam. Doshta. Dogdhum. Dogdavyam. Dogdha. Drishtum. Drishtavyam. Drishta. Run. Drayakah. Dratum. Dratavyam. Drata. Dravakah. Drotum. Drotavyam. Drota.
Okay, correct.
Thank you.
Thank you. Yeah. Dhanyavada. So, okay, so next. Maithili.
Shriyate va?
Shriyate.
Dveshtum, dveshtavyam, dveshta. Dhatum, dhatavyam, dhata. Bhavatum,
dhu.
Bhavata.
No. You should not go by what dhatum. Is there. That is wrong. So what will be dhu?
Dhotum. Dhotum, dhotavyam, dhota. Dhatum, dhatavyam, dhata. I need to see.
You need to see the. Sorry.
Empty
date. Yeah, I did. I think it will take some time to move.
Oh.
Has it not moved? It should have.
No, it's not.
Okay, just a moment. Why did it? Okay. Yeah.
Yeah. Dhotum, dhotavyam, dhota.
No. Which one? The dhr. Dhr is dhartum.
Oh, yes, in dhr. Okay, sorry. Dhartum. Dhartum, dhartavyam, dharta. The same thing.
No? Dhartum, dhartavyam, dharta. Yeah, two dhartum the same.
Dhatum, dhatavyam, dhata.
No, that is wrong. What is dhe? Ejantanam akaraha bhavati.
Atum. Dhatum, dhatavyam, dhata.
Dhatum, dhatavyam, dhata.
Dhatum. Dhatavyam, dhata. Jatum, jatavyam, jata. Grotum, grotavyam.
Grotum.
Grotum, grotavyam, jota. Nantum, nantavyam, nanta. netum netavyam neta. Notum notavyam nota. Paktum paktavyam pakta. Patum patavyam pata.
Same. So both pa is the same.
Patum patavyam pata. Peshtum peshtavyam peshta. Poshitum
poshtum.
Postum postavyam posta. Prashtum prashtavyam prashta. Pretum pretavyam preta. Plotum plotavyam plota.
Come here. Dhanyavada. Okay. So, just one moment, please. So, okay, so now we will try to tell the forms without looking at the this one. So far we had the filled columns of Tumun and Tavya. So we will just try to tell the forms now without the help. Okay, if required, I'll help you. So Padmanabhan Mahodaya. So just looking at the dhatu and now, the dhatus we are dealing with now are all anit dhatus. So, yes. Bandha.
Bandhum.
Bandhum.
Bandhum. Bandhavya. Bandha.
Bandha.
Bandha. Okay. Buddha. Bodhum. Bodhavya.
Bodhavyam. Bodha.
Bodha.
Bach.
Bach.
Bhaktum.
Bhaktum. Bhaktavyam. Bhakta. Ha. Bhatavyam Pata. Bhetum. Bhetum. Bhetavyam Bheta.
Bheta.
Bhetum. Bhetavyam. Bheta. Bhuj. Bhuj. Bhoktum. Bhoktavyam. Bhokta. Kril. bhaktum bhaktavyam bhakta. Same again, bhaktum bhaktavyam bhakta. Mantum mantavyam manta. Matum matavyam mata. Much moktum moktavyam mokta. Matum matavyam mata. Mlatum mlatavyam mlata.
Yashtum.
Yashtum. Yashtum, then yashtavyam yashta. Yam. Yantum. Yantavyam yanta. Ya. Yatum. Yatavyam yata. Yoktum. Yoktavyam yota.
Yokta.
Oh, yokta. Okay.
Yoktum yoktavyam yokta.
Yokta. Which again, same thing. Yoktum yoktavyam yokta. Yodhum yodhavyam yodha.
Samyak. Dhanyavada. Yodhum yodhavyam yodha. Shri Ram Mahodaya.
Okay.
Ranj.
Ranj. Ranj. Rantum.
Ranktum.
Rantum. Rantavyam. Rangta.
It is ranktum. The kakara, the ja becomes ka. So you have ranktum, ranktavyam, rankta.
Okay. Rantum, rantavyam, ranta. Rodhum, rodhavyam, rodha. Rodhum.
Rodhum.
Rodhum. Rodhavyam. Rodha. Labdhum. Labdhavyam. Labdha.
Ledhum.
Ledhum. Ledhum. Ledhavyam. Ledha. Ledum.
Letum.
Letum. Letavyam. Leta. Vaktum. Vaktavyam. Vakta. Vaktum. Vaktavyam. Vakta. Vastum. Vastavyam. Vasta. Vasi. Vaktum.
Vodhum.
Vodhavyam. Vodha. Vatum. Vatavyam. Vata. Ved. Ved. Vedum.
Vetum.
Vetum. Vetavyam. Veta. Veshtum. Veshtavyam. Veshta. Ve becomes Vatum. Vatavyam. Vata. Shaktum. Shaktavyam. Shakta. Shaktam Shaktavyam Shakta. Kshetam Kshetavyam Kshetta.
Where is Kshetupa? Shishu.
Oh, sorry. Kshetum.
Kshetum.
Kshetum Kshetavyam Kshetta. Shodham. Shodhavyam Shodha. Kshoshtum. Kshoshtavyam Kshoshta. Kshoshta. Kshoshtum Kshoshtavyam Kshoshta.
Samyak. Dhanyavada.
Dhanyavada.
So, good. So, you are getting to this. There are kechana prashnaha yajadhatoha vishaye bahavah prichyanti. Yajadhatoho yashtum ityeva ropam natu yaktum. So, by the normal sandhi, like you have yujayoktum or pachupaktum, it should have been yaktum. But there is a special sutra which makes it yashtum. So, yaj becomes yashtum, sruj becomes srashtum. Srija mrija marshtum. Mrija becomes marshtum. So there is a separate rule. So see, the sandhis, it is not very easy to tell them as a general rule, because there are general rules and there are specific rules. So generally the chavarga changes to kavarga. So vachya vaktum, pachya paktum, yuja yoktum, bhuja bhoktum, etc. So among the dhatus we have yaj, srij, mrij. They are exceptions. So for them, instead of the kakara, there is a shakara. Okay? Yashtum, srashtum, and marshtum. So marj, there are again marjitum api asti, marshtum api asti. Okay. So we saw them as the special forms in when we did the tumun and tavya. Okay. So we'll continue with this. So agrimam. Jyotsna Bhagini.
Shra. Shratum. Shratavyam. Shrata. Shru. Shrotum. Shrotum. Shrotavyam. Shrota. Shlish. Shleshtum, shleshtavyam, shleshta. Sad. Saditum.
Sadhum.
Oh, sadhum. Sadhavyam. Sadha.
Sadha.
Sidh. Seditum.
Sedhum.
Sedhum. Sedhavyam. Sedha. Sru. Sartum. Sartavyam. Sarta. Sruj. Sarjatum.
Srashtum.
Oh, shametam. Srashtum, srashtavyam, srashta.
Srip. Hello? Nashruyate. Hari Om. Lost connection. Srip.
Sarpatum bhavativa.
Sraptum.
Oh, sraptum. Sraptavyam srapta.
So if rakara is in the upada, we have the ra. So drish drashtum. srijit srashtum trip etc. So you have it becomes ra if it is anit. Okay. Ah. Stu.
Stu stotum stotavyam stota. Stha. Sthatum sthatavyam sthata. Sna. Snatum snatavyam snata. Sprish sparsht
sprashtum
sprashtum shimitam. Sprashtum sprashtavyam sprashta. Smi smarno.
E becomes A. Gunaha.
Smetum. Smetavyam smeta. Smr smar. Tum swapapta. Swid.
Can you repeat the smr? I think my audio got lost. I couldn't hear it.
Smartum smartavyam smarta.
Samyak. Svid.
Svid. Svetum. Svetavyam sveta.
Sveta.
Han. Hantum antavyam hanta. Ha. Hantum.
Hatum.
Hatum. Oh, shameta. Hatum hatavyam hata. Who? Na janami begini.
Hotum.
Hotum. Astu. Hotum hotavyam hota. R. Hartum hartavyam harta.
Samyak. Dhanyavada.
Dhanyavada.
Kumar Shankar Mahalaya.
Mani.
Ha.
Hanatum.
Hnotum.
Hnatavyam.
Hnotum. Hnu.
Hnotum. Yeah, yeah, yeah. Hnotum. Hnotavyam. Hnota. Hrayatum.
Hretum.
Is it? Okay.
Hri becomes Hre. Hretum.
Hretum. Hretavyam. Hreta. Hvatum. Hvatavyam. Hvata. Hretum. Kletavyam, kleta.
This is weight, so there is also a form with it. So if we have it,
kleditum, kleditavyam, kledita.
Samyak. So itaha abhave, kletum, kletavyam, kleta. Yada it bhavati, kleditum, kleditavyam, kledita. Clip.
Kleptum.
Klaptum.
Klaptum. Klaptavyam. Klapta.
Idagame.
Klepitum.
Kalpitum.
Kalpitum. Kalpita.
Kalpitavyam. Kalpita.
Kalpitavyam. Kalpita. Okay. Shamma. Shantum. Shantavyam. Shanta.
Kshamitum.
Kshamitum, Kshamitavyam, Kshamita. Gahitum. No, go.
Correct.
Go.
Gahitum is, if there is it, it is gahitum.
Okay. Otherwise it is gahum, is it?
Gadhum.
Gadhum, okay. Gadhum. Gadavyam. Gada. Then the
and
other
one is it. Gahitum.
Gahitum, gahitavyam, gahita. Okay.
Goptum.
Gopum. Goptum. Gopita. No, sorry. Gopitavyam. Gopita.
Gopitum. Gopitavyam. Gopita. If there is it. If there is no it.
Gopum.
Goptum.
Goptum. Goptavyam, Gopta. Okay. So the way indicates both, is it?
Yes, way indicates weight. So there are two forms, one with it and the other okay. without it.
Okay. Takshum.
Tashtum.
Tashtum, Tashtavyam, Tashta. So then the other form is Takshitum, Takshitavyam, Takshita. This is also weight. So
Traptum.
Traptum, Traptavyam, Trapta. And then other form is Tarpitum, Tarpitavyam, Tarpita.
Samyak. Dhanyavadaha. Thanks. And two forms for each. Mahadevan. Mahalaya. Drupu.
Okay. Drupu. Druptum.
Draptum.
Draptum, Draptavyam, Drapta. Darpitum, Darpitavyam, Darpita. Druh. Drohum, Drohavyam, Drodha. Druhitum.
Drohitum.
Drohitum, Drohitavyam, Drohita. Nash.
Nash, I think that should also be weight. I'll check this. Nashtum, Nashitum. I'll check this. I think Nash also has two forms. I'll check
Nashitum.
This. Nashitum.
Nashitum, Nashitavyam, Nashita will be one form. Nashtam, Nashtavyam, Nashta may be the other form.
Yes, that should be. I'll just check it because this says set, but I remember there are two forms. I'll just check it and confirm.
Muhu, Modhum, Modhavyam, Modha. Mohitum, it is data, I suppose. Mohitum, Mohitavyam, Mohita. Mridya. Is marshtum, marshtavyam, marshta is one form. Margitum, margitavyam, margita, the other form. Shnihar, is it snedhum? Snedhum, snedhavyam, snedha. Snehitum, snehitavyam, snehita. Being,
so henceforth they are all set. Okay.
dayitum, dayitabhyam, dayita, is it aki?
Ankitum, ank,
ank, okay, ankitum, ankitabhyam, ankita, ankitum, ankitabhyam, ankita, ane, anitum, anitabhyam, anita, ayi, ayitum, ayitabhyam, ayita, arch, architum, architabhyam, archita, arch, architum, architabhyam, archita, arh, arhitum, arhitabhyam, arhita, ab, abitum, abitabhyam, abita, ash, ashitum, ashitabhyam, ashita, shasu,
ashas,
Asha, oh, a upasarga is added, isn't it?
Nityamang purvaha. So compulsorily preceded by a. So asha.
Ashasitum. Ashasitabhyam. Ashasita. Asa. Asitum. Asitabhyam. Asita. Ishe. Yeshitum. Yeshitabhyam. Yeshita.
Ishe also has an anit form. I mean, it is a set dhatu, but for the takaradi pratyaya, it also has anit form. So, eshtum.
Then it is eshtum, eshtabhyam, eshta. Eksh, ekshitum, ekshitabhyam, ekshita.
Samyak. Dhanyavadaha. Yeah, dhanyavadaha. Anantakrishnan Mahalaya.
Anantakrishnan. Irshayitavyam.
Irshitum. Irshitum.
Kimatam tatra ikaraha sikam.
Irshitum.
Irshitum. Irshitavyam. Irshita.
Irshita.
Ihitum, ihitavyam, ihita. Uhitum, uhitavyam, uhita. Rudh.
Rudh.
Rudh. Kshamita. Rudh. Ardhitum.
Ardhitum.
Ardhitum. Ardhitum. Ardhitavyam. Ardhita. Yedh. Yedhitavyam.
Yedhitum.
Yedhitum. Yedhitavyam. Yedhitavyam. Yedhita. Katha. Katitum.
Kathayitum.
Kathayitum. Kalo.
Churadigane said the ayi.
Kathu na bhavati kalo. Katha iti bhavati.
Kathayitum. Mula dhatuhu katha iti. Katha iti dhatuhu. Tatra kathayati kathayitum. Aya. Dhanichaha shravanam bhavati. Ataha kathayitum.
Moladatu katha, anantram katha iti eva bhavitavyam kalu, tatra kimartam katha iti astu.
Asti, katha, to avoid confusion, tavadeva. Akarasya lopaha kathanchit bhavati iti asti.
Kathayitum, kathayitum, kathayitavyam, kathayita. Tatha kamu. Kamitavyam, kamitum, kamitavyam, kamita, kamp, kampitum, kampitavyam, kampita, kala, kalitum, kalitavyam,
churadihi.
Kala, tada kali iti bhavati, kali.
Kalayitum.
Kalayitum, kalayitum, kalayitavyam, kalayita. Kankshu, kankshitum, kankshitavyam, kankshita. Ki, Shurarji again. Kirta, 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 kirta yitum, kirta yitavyam, kirta yita. Kile, kilitum, kilitavyam, kilita. Kupu, kopitum, Shurarji wa, na.
No.
Kopit, kopitum, kopitavyam, kopita. Kuje, kujitum, kujitavyam, kujita. Kurd, kurd, kurdhavyam, kurditum. Kurditum, kurditav, kurdita. Kru, kru, kar, karditum iti bhavati va?
Karitum, karitum, ropadvayam. Karitum, karitum.
Karitum, karitum. Karitavyam, karitavyam. Karita, karita. Krand, krandi, kranditum, kranditavyam, krandita. Kram, kramitum, kramitavyam, kramita. Kreed, kreeditum, kreeditavyam, kreedita. Klam, klamitum, klamitavyam, klamita.
Samyak, dhanyavadah. Nanda Kumar Mahone.
Namaste.
Ha.
Klesha. Kleshita. Kleshita. Kleshita vyam kleshita. Kvath. Kvathitam. Kvathita vyam kvathita. Kshal. Suradi. Kshalayita. Kshalayitam. Kshalayita vyam. Kshalayita. Kshayitum.
Kshavitum.
Kshavitum. Kshavitavyam. Kshavita. Kshubh. Kshubhitum.
Kshobhitum.
Kshobhitum. Kshobhitavyam. Kshobhita. Khandayitam, khandayitam, khandayitavyam, khandayita. Ghanitam, ghanitavyam, ghanita. Ghaditam, ghaditavyam, ghadita. Ghelitam, ghelitavyam, ghelita. Ganayitam, ganayitavyam, ganayita. Gaditam, gaditavyam, gadita. Garjitam, garjitavyam, garjita. Garhitam, garhitavyam, garhita. Gaveshayitam, gaveshayitavyam, gaveshayita. Gunjitam, gunjitavyam, gunjita. Gopitam, gopitavyam, gopita. Gumbhitam, gumbhitavyam, gumbhita. Garitam, samit? garitum garitavyam garita.
There is also garitum. So optionally it becomes long for r karantas. So garitum garitum garitavyam garitavyam.
Garita garita. Grantha. Grandhitum, grandhitadyam, grandhita. Garhitum, garhitadyam, garhita.
Graha, graha, grahitum.
Grahitum, grihitadyam, grihita.
Grahitum, not grihitum. So for this case, it will be grahitum, grahitavyam, grahita. Dhanyavadaha. Shridhar Mahodaya.
Namaste, Mali. Gatitum, gatitavya, gatita. Goshitum, goshitavya, goshita. Garshitum, garshitavya, garshita. Charitum, charitavyam, charita. Charvitum, charvitavyam, charvita. Chalitum, charitavyam, charita. Chetum,
chitrayitum. Chitra. It's, the ra is not visible clearly. Chitrayitum.
Chitrayitum. Dhanyavada. Chitrayitum, chitrayitavyam. Chintrayita. Chintayidum. Chintayitavyam. Chintayita. Chodayitum. Chodayitavyam. Chodayita. Chumbitum. Chumbitavyam. Chumbita. Choraitum, choraitavyam, choraita. Churna. Churnaitum, churnaitavyam, churnaita. Chushitum, chushitavyam, chushita. Cheshta. Cheshtitum, cheshtitavyam, cheshtita. Chhadayitum, chhadayitavyam, chhadayita. Janitum, janitavyam, janita. Japitum, japitavyam, japita. Jalpitum, jalpitavyam, jalpita. Jagartum,
jagaritum.
Jagaritum, jagaritavyam, jagarita. Jagarita. Jeevitum, jeevitavyam, jeevita.
Samyak. Dhanyavadaha. Okay. So we will stop here since it is time. The rest should be easy. See, the most difficult part is the anit ones where we have to know the sandhi. The set ones are generally easy. You just have to think of the guna and there being no guna. So since we have had this much, we will stop here. Please do fill in the forms of those which are not yet filled. Okay, for Tumun Tavya and also for the Trich. Okay, so practice, practice, practice. Practice is one thing. I mean, if you keep practicing, instinctively the forms will come. Because, you know, I mean, when we want to actually use it in a sentence, whether speaking or writing, you cannot stop to think of, okay, is there a guna, no guna, or sandhi, no sandhi. Forms should come instinctively when you want them. They will come if you have practice. Okay, so either oral or just fill this. So you keep practicing, it will become much easier to know the forms. Okay, sorry. So this is the one. So we will stop with just, so we had the practice. So we'll stop with one shloka and then I'll answer the questions. There were a few. Okay. So I'm shloka. Sarvopanishado gavo dogdha gopalanandanaha partho vatsa sudhir bhokta dugdhangita amritam mahat. So gita yaha dhyana shlokeshu idam anyatamam bhagavad gita yaha. Sarvopanishadaha gavaha. So all the Upanishads are cows. Dogdha. Yaha dogdhi dohanam karoti saha dogdha gopalanandanaha. So who milks the essence of the Upanishads? It is the gopalanandanaha. Krishna, who is represented as gopalanandanaha. So Krishna is the cowherd who milks the cows. That is, the essence of the Upanishads is taken in the form of milk. Partho vatsaha. And who is the recipient? The main recipient is Partha. So for a cow, the direct or the first adhikara for the milk is for the calf, Parthaha Vatsaha. But of course, that milk is also used by all of us. Sudhihi Bhokta. And who partakes the milk is Sudhihi. Whoever is intelligent will take this essence of the Upanishads from the Gita. Dugdham Gitamritam Mahat. Dugdham. So the milk is the Amrita of Bhagavad Gita. Gitamritam Mahat. Sarvopanishado gavo dogdha gopalanandanaha partho vatsaha sudhir bhokta dugdham gitamritam mahat. So duh dhatoho dogdha evam bhuj dhatoho bhokta iti rupam bhavati. Okay. So atra sthagayamaha. So if you have questions, you can raise your hands. But there were a few earlier questions. I'll answer them. Okay, Kashtekena Sit Prashtam. How to fill the form in Devanagari? So it is already there at the beginning of the where is the one? Somebody has deleted this. There were a few things before which told this one. Which had links for typing in Devanagari. Okay. So I'll put that information again. So there are a few software for any typing in Devanagari. We need something called an input method editor. So there is Bhasha IME and there are a few others which can be used. So I will reinsert the that information. Okay. So I don't know. I mean, it was there at the beginning of this sheet. Somehow it seems to have been deleted. Okay. Okay, I don't know, I mean, for Apple, I am not sure. Or Mac, I'm sure there must be some different software. I'm not aware of it because I use Windows. So if there's somebody who uses Mac or other systems and, you know, of Devanagari, this, you can try this. Okay. So there are web tools. Okay, there is something called Sanskrit. There is also the Google input tools, which can be used for typing in the browser. So that should work for any browser. But other systems, I'm sorry, I don't know. Okay. Yes, Maithili. Kaha dhatu ho? I cannot hear.
Duho, muho.
Mohadhatu, yeah.
Wait, tatra idagam abhave rupam katam bhavati mohitam मोहितव्यं मोहिता इडागमः न अस्ति चेत् मोढुं भवति वा
मोढुं मोग्धुम् इति रूपद्वयमपि अस्ति एक्चुलि इन् द एब्सेन्स् आफ् इट् इट् हेस् टु फार्म्स् वन् इस् मोढुम् अण्ड् अदर् इस् मोग्धुम्
मोढुं मोढव्यं मोढा मोग्धुं मोग्धव्यं मोग्धा
So there was one more question on reiterating the sandhi changes. As I said, the sandhi changes are not very easy to, you know, exactly. I mean, you'll have to have a separate course for sandhi itself. But both in Tumun and for Tavya, we have already done that. Okay, so if you see the Tumun class, so you will have the this one for the Sandhis. So for Dakarantas, it becomes Takara. So Chetum, Bhetum, Vetum, Totum, Notum. For Chavarga, it becomes Kavarga. So you have Moktum, Bhoktum, Yoktum, etc. So then you have the Shakara. There will be Shtutva, so Peshtum, Dveshtum, Toshtum, Poshtum. So both Shakaras, the Talavya Shakara also becomes Murdhanya. So Deshtum, Veshtum, Kroshtum, etc. So this was specifically asked. So Dhakara becomes Dakara and the Takara of Tumun becomes Dhakara. Okay, so that is the, so Bandhum. How to write this? You have Bandh Dhum. So Sadhutum becomes Sadhum. Sadhum. Labhutum becomes Labdhum. Labdhum. So Sedhum, Rodhum, Yodhum, Bodhum, Krodhum, etc. So you also have some special forms. So for Rikara is in the Upadha, it becomes Ra. So Drish, Drashtum, Sprish, Sprashtum, Krish, Krashtum. So Hakara becomes Dhakara, Vah, Vodhum, Lih, Ledhum, Ruh, Rodhum. So special cases, Dah and Duh, it becomes Gdha. So Dagdhum, Dogdhum. So again there are some other dhatus. Prach become Prashtum, Yaj, Yashtum, Srij, Srashtum. Okay. So for this class, I think this much is enough. So maybe we will do something else where we'll deal with the sandhis in detail. Okay, because there are many rules. Any other questions? Ne prashnaha santiva? So we will stop here. Gurureva Gatir Gurumeva Bhaje Gurunaiva Sahasminamo Gurave Naguroh Paramam Shishurasmi Gurur Matirasti Guru Mamapahi Guru. Dhanyavada.